ममरेन्द्रमुदोनिदानम् आस्फालितस्वकभुजस्फुटिताद्रिकाण्डम् द्राङ्मैथिलीनयननन्दन मध्य वन्दे मध्ये निशाचर महाभयदुर्विषह्यम् घोराद्भूतव्रतमियदश्चार पत्येतदस्य बहुधा परिणामदूतम् सीता पुरस्कृततनुम् हनुमन्तमीडे यः पादपङ्कजयुगम् रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः प्रागेव रागी विदधे बहुवन्दमानो वन्देऽञ्जनाजनुशमेश विशेष तुष्ट्यै तान् जानकी विरहवेदन हेतुभूतान् द्राकाकलय्य सदशोकवनीय वृक्षान् लङ्कालकानिव घना नुदपाटयद्यस्तम् हेम सुन्दरकविम् प्रणमामि पुष्ट्यै घोषप्रतिध्वनितशैलगुहासहस्र सम्भ्रान्तनादितवलम् मृगनाथयूतम् अक्षक्षयक्षणविलक्षित राक्षसेन्द्र मिन्द्रम् कपीन्द्रपृतना वलयस्य वन्दे हेलाविलङ्घितमहार्णवमाप्यमन्दम् पूर्णद्गदा विहति वीक्षत राक्षसेषु त्वम् मोदवारिधिमपारमिवेक्षमाणम् वन्देऽहमक्षयकुमारकमारकेशम् जम्भारिचित्रसफलम् वितपाशबन्धम् ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् रौद्रावतारमपि रावणदीर्घदृष्टि सङ्कोचकारणमुदार हरिम् भजामि दर्पोन्नमन्निषचरेश्वरमूर्धचञ्चत् कोटीरचुम्बिनजबिम्बमुदीक्ष्य हृष्टम् पश्यन्तमात्मभुजयन्त्रणपिष्यमाण तत्काय शोणितनिपातमपेक्षि वक्षः पक्षप्रभृत्यमरविक्रमवीरनाशक् क्रोधादिवद्रुतमुदञ्चितचन्द्रहासम् निद्रापीताप्रघनकरजनघोरघोषैः संस्तम्भयन्तमभिनौमि दशास्य मूर्तिम् आशंस्यमान विजयम् रघुनाथधाम शंसन्तमात्मकृतभूरि पराक्रमेण दौत्ये समागमसमन्वयमादिशन्तम् वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् यस्योचितीम् समुपदिष्टवतोऽधिपुच्छम् दम्भान्धितान्धियमपेक्ष्य विवर्धमानः नक्तम् च राधिपतिरोषहिरण्यरेता लङ्कान्दिधक्षुरपतत्तमहं वृणोमि निशाचरकुलञ्ज्वलनावलीढै साक्षात् गृहैरिव बहिः परिदेवमानम् स्तब्धस्वपुच्छततलग्नकृपीटयोनि दन्दह्यमाननगरीं परिगाह मानाम् मूर्तैर्गुहासुभिरिवत्युपुरं व्रजद्भिर्व्योम्नि क्षणं परिगतं पतकैर्ज्वलद्भिः पीताम्बरं ददतमुच्छ्रितदीप्तिपुच्छं सेनां वहद्विहगराजमिवाहमीडे स्तम्भीभवत्स्वगुरुवालधिलग्नवह्नि ज्वालोल्लध्वजपटामिव देव तुष्ट्यै वन्दे यथोपरिपुरो दिवि दर्शयन्तम् अद्यैव रामविजयाचिक वै जयन्ति रक्षश्च यैकचितकक्षकपूश्चितौ यः सीता शुचो निज विलोकनतो मृतायाः दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्गूलदत्तदहनेन मुदे सनोऽस्तु आशुद्धयेरघुपतिप्रणयैकसाक्ष्ये वै देहराजदुहितुस्सरिदीश्वराय न्यासन्ददानमिव पावकमापतन्तम् अब्धौ प्रभञ्जनतनूजनुषं भजामि रक्षस्व तृप्तिरुढशान्तिविशेषशोणम् अक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् भास्वत्र भातरविभानुभरावभासम् लङ्काभयङ्करममुं भगवन्तमीडे तीर्थोदधिञ्जनकजार्पितमाप्यचूडा रत्नं रिपोरपि पुरं परमस्य दग्ध्वा श्रीराम हर्षगलदश्रवभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् यः प्राणवायुजनितो गिरीशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशङ्करात्मा हृद्यो हरस्य हरिवद्धरिताङ्गतोऽपि धीधैर्यशास्त्रविभवे तुलमाश्रये तम् स्कन्धे दीवाय्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् तस्मादवाप च वरान् परान् वाप्यान् तं वानरं परमवैष्णवमीशमीडे उमापतेः कविपते स्तुतिर्बाल्य विजृम्भिता हनुमतस्तुष्टये स्तु वीरविंशतिकाभिधा इति श्री वीरविंशतिकाख्यं श्रीहनुमत्स्तोत्रं सम्पूर्णम्।